ஹலோ,
ஹலோ, என்ன சொல்லு? சலாம். வாங்க நம்மளுக்கு மத்தோப்பி நம்பர் மொபைல் இல்லைன்னா வீட்டிங்க டெலிவரி தக்கம் நம்பரா
ቴሌብሮችን 127 ጋር ደውሎ ይጠይቋቸው።
እኮ ማስጠንቀቂያ የደረሰኝ በዚህ ነው፣ ቻፓ በሚለው በዚህ ስልክ ነው።
ማስጠንቀቂያ ሳይሆን ቤቲንግ ሊጫወቱ ሲሉ ሁሌ ቴክስት ይገባል። ይሄ ማስጠንቀቂያ ነው። ለምን ብዙ ሰዎች እየተበሉ ስለሆነ፣ ያለ ፈቃዳቸው አካውንት እየተሰጠ እየተበሉ ስለሆነ ቴክስት ይላካል። ይሄ ማስጠንቀቂያ መልእክት ነው። እርስዎ ቤቲንግ ለመጫወት ፈቅደው ከሆነ ይሄን ይሄን ቁጥር ያስገቡ ብሎ ይመጣል ቁጥር።
ኦኬ፣
እሱ ነው የገባው ማስጠንቀቂያ እንጂ ማስጠንቀቂያው አዌርነስ እንዲፈጠር ነው።
እሺ፣ መልካም። እግዚአብሔር ይመስገን።